भगवन्तमनन्तमाद्यं सच्चित् सुखात्मक शिरस्त्रितयं दधानम् ऐश्वर्य वीर्य यश आदि भुजैर्लसन्तम् देवमत्रिवरदं नतदत्त सर्वं सर्वात्मकं सकलवन्दितपादपीठं भक्तानुरूपधृतरूपमनेकमेकं शान्तं सदेकनिलयं निलयादिहीनम् प्रात्यवातरशनं रसनातिगमकं यस्मिन्निदं जगदशेषमनुप्रवेष्टं वस्त्रे गुणा इव गुणातिगमप्रमेयं वेदश्वभिः प्रतिदिनं बहुशोभमानम् भूतैः श्मशानकुहरे तमतर्क्यलीलम् मायापतिं पतिविहीननिरस्तमायं यं योगि भोगि जटिमुण्डिन आस्तुवन्ति नेतीति वेदनिवहा खलु यत्र मूका वेणु भगवन् प्रणतोऽस्म्यतो हि रङ्गेण विहितं स्तोत्रं चतुश्लोकसमन्वितं यः पठेत् प्रातरुत्थाय तस्याः सुखदं भवेत्।